एष रेडियो नेपाल सम्प्रति समाचार श्रोयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेले न चत्वारि विधेयकानि प्रमाणीकृतानि सन्ति। राष्ट्रपतिना पौडेले न सार्वजनिक क्रयण सम्बद्धम् एतद् विक्रमवर्षीयं द्वितीय संशोधन विधेयकम्, सम्पद शुद्धिकरण निवारण सम्बद्धम् एतद् विक्रमवर्षीयं तृतीय संशोधन विधेयकम्, एतद् विक्रमवर्षीयं सहकारी प्रथम संशोधन विधेयकम्, स्वास्थ्य विज्ञान प्रतिष्ठान सम्बद्धान् कतिपयान् नेपालाधिनियमान् संशोधयितुं निर्मितम् एतद् विक्रमवर्षीयं विधेयकम् च प्रमाणीकृतमस्तीति राष्ट्रपतेः कार्यालयेन ज्ञापितम् वर्तते। संघीय संसद पारितीकृत्य प्रमाणीकरणाय एतानि विधेयकानि ह्य एव राष्ट्रपति कार्यालये प्रेषितानि सन्ति। प्रतिनिधि सभाया स्तनोपवेशन राष्ट्रिय सभया चतुर्ष विधेयकेष् विधि विहितं संशोधनं सर्वसम्मत्या स्वीकृतमस्ति। द्वाचत्वारिंशदुत्तर द्विसहस्रतम विक्रमाब्दस्य नेपाल विशेष सेवाधिनियमस्य तात्कालिकीं व्यवस्थाम् उज्जीवयितुं निर्मितम् एतद् विक्रमवर्षीयं विधेयकम् आधृत्य विचारितामिति निगद्य प्रस्तुत प्रस्ताव प्रतिनिधि सभाया उपवेशन स्वीकृतोऽस्ति। प्रधानमन्त्रिण बालेन्द्र शाहस्य पक्षत विधि मन्त्रिणा सुविता गौतम इत्यनया प्रस्तुत प्रस्ताव सभया बहुमतेन स्वीकृतोऽस्तीति सभामुख अजूल प्रसाद अर्याल उदघोषयत्। प्रतिनिधि सभाया महान्यायाधिवक्त कार्यालयस्य अधिकार दुरूपयोगानुसन्धान आयोगस्य च वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। सभाया स्थनोपवेशे प्रधानमन्त्रिण पक्षत विधि न्याय संसदीय विषय मन्त्रिणा सोविता गौतम इत्यनया गत विक्रमवर्षं महान्यायाधिवक्त वार्षिकं प्रतिवेदनम् अधिकार दुरूपयोगानुसन्धान आयोगस्य गत आर्थिक वर्षीयं पञ्चत्रिंशत्तमं प्रतिवेदनं च प्रस्तुते स्तः। प्रतिनिधि सभाया स्थनोपवेशे सर्वकारस्य प्रवक्ता शिक्षा खेलकूद मन्त्री सस्मित पोखरेल शासकीय सुधारस्य प्रयासम् अतिरिक्तं संस्थागतं परिष्कृतं परिणाममुखं च विधाय सुशासनं संस्थापयितुं सर्वकार प्रतिबद्धोऽस्तीति अगदत्। उपवेशे मन्त्री पोखरेल सर्वकार संघटनस्य शतदिनेष् विहितानां कार्याणां प्राप्तोपलब्धीनां परिणामस्य च सारांशं प्रस्तुत्य गत भाद्रमासस्य जेन्जी युवान्दोलनस्य माध्यमेन अभिव्यक्तां सुशासनस्य शासकीय रूपान्तरणस्य च आकांक्षां संस्थागतां विधातुं सर्वकारस्य प्रतिबद्धतां दुरावर्तितवान्। राष्ट्रिय सभया ह्य षड् विधेयकानि पारितीकृतानि सन्ति। सभाध्यक्षस्य नारायण प्रसाद दाहालस्य अनुसारेण चत्वारि अध्यादेश प्रतिस्थापन सम्बद्धानि विधेयकानि, द्वयस्य आयव्ययक सम्बद्धं विधेयकं च पारितीकृतानि वर्तन्ते। पारितीकृतेष् अध्यादेशेष् सार्वजनिक क्रयण सम्बद्धं द्वितीय संशोधन विधेयकम्, सम्पद शुद्धिकरण निवारण सम्बद्धं तृतीय संशोधन विधेयकम्, सहकारी सम्बद्धं प्रथम संशोधन विधेयकम्, स्वास्थ्य विज्ञान प्रतिष्ठान सम्बद्धान् कतिपय नेपालाधिनियमान् संशोधयितुं निर्मितं विधेयकं च सभया पारितीकृतानि वर्तन्ते। एवमेव एतद् विक्रमवर्षीयम् आर्थिक विधेयकम्, राष्ट्र ऋणोत्थापन विधेयकं च सभया पारितीकृते स्तः। अर्थमन्त्रिणा डा सोनिम वाग्लेभिदेन सभायां प्रस्तुतम् आर्थिक विधेयकं पारितीकृत्य प्रतिनिधि सभायां प्रत्यावर्तनीयमिति निगद्य प्रस्तुत प्रस्ताव प्रकरणगत विमर्शनानन्तरं परामर्श प्रदानेन विधा सभया सर्वसम्मत्या पारितीकृतो वर्तते। उपवेशे सांसदै उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डा वाग्ले सर्वकारेण विकास निर्माणे बाधकानां बहुशोधिनियमानां सुधारस्य प्रक्रिया अग्रेसारिते इति उक्तवान्। प्रधानमन्त्रिणा बालेन्द्र शाहेन निर्माण क्षेत्रेष् विद्यमानानां समस्यानां निर्माण व्यवसायस्य प्रवर्धनस्य भौतिक पूर्वाधार विकासस्य च विषयेष् ह्य निर्माण व्यवसायिनां प्रतिनिधिभिस्सह विमृष्टमस्ति। सीमा प्रासादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये सम्मुखे विमर्शने प्रधानमन्त्री शाह निर्माण क्षेत्रं देशस्य आर्थिक विकासस्य वृत्त्युपार्जनानां सर्जनस्य पूर्वाधार निर्माणस्य च महत्वपूर्ण आधारो स्थिति चर्चयन् निर्माण क्षेत्रे दृष्टानां समस्या समाधानाय सर्वकारः तत्परोऽस्तीति प्रावोचत्। प्रधानमन्त्री शाह निर्माण व्यवसायं मर्यादितं पारदर्शिनं दायित्ववाहिनं परिणाममुखं च विधाय विकास निर्माणस्य कार्याणि समय एव सम्पादयितुं सर्वेषां पक्षाणां सक्रियस्य प्रभावपूर्णस्य च सहकार्यस्य आवश्यकतां न्यश्चिनोत्। विमर्शने नेपाल निर्माण व्यवसाय महासंघस्य पदाधिकारिणः सहभागिन आसन्। राष्ट्रिय चिकित्सा शिक्षा आयोगस्य उपवेशन राष्ट्रिय चिकित्सा शिक्षा आयोगस्य एतत् विक्रमवर्षीय कोष संचालन सम्बद्ध कार्यविधि स्वीकृतोऽस्ति। सीमा प्रसादवर्तिनी प्रधानमन्त्री मन्त्री परिषद कार्यालये प्रधानमन्त्रिणः बालेन्द्र शाहस्य अध्यक्षतायां ह्य उपविष्टे उपवेशे आयोगस्य उपाध्यक्षेण डॉ देवेन्द्र खत्री इत्यनेन कार्यविधेः स्वीकृति सम्बद्ध प्रस्ताव प्रस्तुत आसीत्। संसदीय श्रवण समितेः उपवेशे प्रमुख निर्वाचन आयुक्त पदे निर्वाचन आयुक्त पदे च नियुक्त्यर्थं प्रस्तावितानां त्रयाणां जनानां संसदीय श्रवण प्रक्रिया प्रारब्धास्ति। सीमा प्रसादे ह्य उपविष्टे समितेः उपवेशे सभापतिः बोधनारायण श्रेष्ठः प्रस्तावितानां जनानां सन्दर्भे लोककथन सम्बद्धां सूचनां सर्वकारीय संचार माध्यमैः संघीय संसद सचिवालयस्य वैद्युत माध्यमेन च प्रकाशयितुं निर्णीतमस्ति इति असूचयत्। सभापतिः श्रेष्ठः प्रस्तावितानां प्रत्याशिनां विषये जनस्तरात् परामर्शानां आह्वानाय अद्यतः दशदिवसानां कृते सार्वजनिक सूचना प्रकाशयिष्यते। प्राप्तानां वेदनानाम् आधारेण श्रवणस्य कार्यतालिका नियुक्तेः प्रक्रियायाः आवश्यक मापदण्डश्च निर्मास्यते इति अज्ञापयत्। उपवेशे सांसदैः प्रस्तावितानां प्रत्याशिनां विषये पूर्णतः सूचनां प्रकाश्य प्राप्तानां वेदनानाम् आधारेण पारदर्शीरूपेण प्रभावकारीरूपेण च श्रवण प्रक्रियायाः अग्रेवर्धनाय बलं दत्तमासीत्। संवैधानिक परिषदा प्रस्तावितस्य प्रमुख निर्वाचन आयुक्तस्य मानबहादुर कार्किणः प्रस्तावितयोः आयुक्तयोः राजीव सुब्बा इत्यस्य गुरूप्रसाद वाग्लेभिदस्य च नाम्नां संसदीय श्रवण समितौ प्रस्तुतेः अनन्तरं समितेः उपवेशेन श्रवण प्रक्रियायाः अग्रेसारणाय निर्णीतं वर्तते। प्रधानमन्त्रिणा बालेन्द्र शाहेन षट्सु स्वास्थ्य विज्ञान प्रतिष्ठानेषु उपकुलपतयः नियुक्ताः वर्तन्ते। परामर्श समित्या विहितस्य परामर्शस्य अनुसारेण प्रतिष्ठानानां कुलपतिना प्रधानमन्त्रिणा शाहेन उपकुलपतयः नियुक्ताः वर्तन्ते। तत्र चिकित्सा विज्ञान राष्ट्रिय प्रतिष्ठानस्य उपकुलपतिपदे डॉ विवेक आचार्यः, पाटन स्वास्थ्य विज्ञान प्रतिष्ठानस्य उपकुलपतिपदे डॉ स्मृति कार्की, पोखरा स्वास्थ्य विज्ञान प्रतिष्ठानस्य उपकुलपतिपदे डॉ नारायण सिंह गुरूङ, कर्णाली स्वास्थ्य विज्ञान प्रतिष्ठानस्य उपकुलपतिपदे डॉ सुरेमान म्याङहाङबो, राप्ती स्वास्थ्य विज्ञान प्रतिष्ठानस्य उपकुलपतिपदे डॉ अजय कुमार मिश्रश्च नियुक्ता वर्तन्ते इति ज्ञापितमस्ति। उपकुलपतिनां नियुक्त्यर्थं सर्वकारेण प्रचयन परामर्श समितिः संघटिता आसीत्।